इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना ह्यः मध्यप्रदेशस्य धार जनपदात् स्वस्थ नारी सशक्त परिवाराभियानस्य सहैव अष्टमस्य राष्ट्रिय पोषण मासस्य च शुभारम्भः कृतः। तेन राज्ये आदिसेवा पर्वणः अपि उद्घाटनं कृतम्। सहैव धार जनपदस्य भैसोला ग्रामे भारतस्य प्रथम पीएम मित्र पार्क इत्यस्य आधारशिलापि संस्थापिता।
स्वस्थ नारी सशक्त परिवार, ये अभियान माताओं बहनों को समर्पित है, उन्हीं के उज्जवल भविष्य के लिए है। हमारा मकसद है एक भी महिला जानकारी या संसाधनों के अभाव में गंभीर बीमारी का शिकार न हो। इन स्वास्थ्य कैंपों में इन सारी जांचों के लिए आपको एक नया पैसा नहीं देना पड़ेगा। जांच भी मुफ्त होगी, दवाई भी मुफ्त होगी।
अवसरेस्मिन् भाषमाणः श्री नरेन्द्र मोदी प्रावोचत् यत् विश्वकर्मा जयन्त्यवसरे भारतस्य महत्तमस्य एकीकृत वस्त्र केन्द्रस्य उद्घाटनं क्रियते। प्रधानमन्त्री आग्रहम् अकरोत् यत् आगामिषु उत्सवेषु क्रयणं सर्वं भारतीय वस्तूनामेव करणीयम्। सः व्यापारिभ्यः उक्तवान् यत् तेषां विक्रयणं सर्वं भारतीय मूलस्य अस्ति इति सुनिश्चितं कुर्वन्तु। भाजपेति दलस्य वरिष्ठः नेता तथा केन्द्रीय गृहमन्त्री अमितशाहः अद्य बिहारस्य रोहतास बेगूसराय इत्यादिषु जनपदेषु दलस्य कार्यकर्तृभिः सह मेलनं करिष्यति। सः गतरात्रौ पटनानगरं सम्प्राप्तवान्। केन्द्रीय गृह राज्यमन्त्री नित्यानन्दरायः, भाजपेति दलस्य राज्य अध्यक्षः डॉ दिलीप जायसवालः, उपमुख्यमन्त्री सम्राट चौधरी, विजय कुमार सिन्हा, अनेके वरिष्ठाः नेतारः च तस्य विमानस्थानके स्वागतं कृतवन्तः। रक्षामन्त्री राजनाथ सिंहः अद्य नवदिल्ल्यां द्विदिवसीयस्य राष्ट्रिय सम्मेलनस्य मन्थन 25+2000 उद्घाटनं करिष्यति। सम्मेलनमिदं रक्षा सम्पदा महानिदेशालयेन 47+2000 विकसित भारताय रणनीतीनां प्रमुख विषयेषु आयोजनं क्रियते। एतत् रक्षाभूमि प्रबन्धनस्य पुनर्कल्पनायां उन्नत डिजिटल उपकरणानां तथा प्रौद्योगिकीनाम् उपयोगे तथा शासकीय संरचनानां सुदृढीकरणे सुस्थिरतायां च रक्षा सम्पदा विभागस्य भूमिकायां केन्द्रितं भविष्यति। प्रधानमन्त्री कार्यालये केन्द्रीय राज्यमन्त्री जितेन्द्र सिंहः जलप्लावित पंजाब राज्ये स्थितिः पुनः सामान्यं कर्तुं पुनर्वसनस्य पुनः स्थापनस्य च प्रयत्नानां कृते केन्द्रतः पूर्ण समर्थनस्य आश्वासनं प्रदत्तवान्। पठानकोट जनपदस्य सीमाक्षेत्रस्य जलप्लावित क्षेत्राणां भ्रमण काले वार्ताहरैः सह वार्तालापं कुर्वन् डॉ सिंहः अवदत् यत् प्रधानमन्त्रिणा स्थित्यां चिन्ता प्रकटिता अस्ति। छत्तीसगढ़ राज्यस्य बीजापुर जनपदे सुरक्षाबलैः सह जाते संघर्षे द्वौ माओवादिनौ मृतौ। मण्डलस्य दक्षिण पश्चिम भागे बहुसंख्यायां माओवादिनाम् उपस्थितेः गुप्त सूचनायाः अनन्तरं ह्यः संघर्षः अभवत्। तदनन्तरं अन्वेषणकार्यम् आरब्धम्। अधुना पर्यन्तं स्थलात् द्वौ माओवादिनौ शवौ प्राप्तौ स्तः। संघर्षकाले मण्डल रिजर्व गार्ड इत्यस्य द्वौ सैनिकौ व्रणितौ, तयोः स्थितिः संकटात् बहिः अस्ति इति उच्यते। अत्रान्तरे छत्तीसगढ़स्य नारायणपुर मण्डले 12 माओवादिनः आत्मसमर्पणं कृतवन्तः। तत्रैव सुकाम मण्डले सुरक्षाबलेन 4 माओवादिनः निगडितः। भारतस्य कुन्तक प्रक्षेपकः नीरज चोपड़ा इत्येषः ह्यः 84.85 मीटरमितं कुन्तक प्रक्षेपण पुरस्सरं 25+2000 तमायां विश्व एथलेटिक्स प्रतिस्पर्धायां पुरुषवर्गस्य निर्णायक द्वन्द्वे प्रविष्टवान् इति वार्ताः।